सर्वेभ्यो नमः, स्वागतं। प्रथमतया वयं प्रार्थनां वदामः। राधा भगिनी,
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनि। अस्तु, प्रथमतया वयं गृहपाठं पश्यामः। तत्र गृहपाठः आसीत्, प्रथमः भागः आसीत् इदानीम् इति अव्ययस्य प्रयोगं कृत्वा वाक्यानि रचयत। के के कृतवन्तः?
अहं वदामि।
अस्तु, राधा भगिनी भवती वदतु।
रमा बालिका आसीत्, इदानीं नारी अस्ति। भक्ताः प्रबोधमन्दिरे आसन्, इदानीं गृहे सन्ति। पूर्वं भारतवर्षम् आसीत्, इदानीम् इण्डिया आसन्।
समीचीनम्।
रामः श्यामः पूर्वमित्रौ आस्तम्, इदानीं शत्रौ स्तः। गोपिकाः कृष्णां सङ्गे गोपिकाः कृष्णां सङ्गे प्रसन्नं स्मः, इदानीं गोपिकाः विरक्तया दुःखम् आसन्।
समीचीनं भगिनि। अस्तु, अन्यः कोऽपि कृतवान् अथवा कृतवती वा? अस्तु, द्वितीयः भागः आसीत्
भगिनि। अहं वदामि।
अस्तु, वदतु भगिनि।
पूर्वं सीता सङ्गीतं गीतवती, इदानीं नृत्यं नृत्यते। Is that right? I'm not sure these are correct, but Purvam Krishnaha Madhura Nagare Asit Idanim Dwaraka Nagare Asti Vasati Asti Purvam Philadelphia Nagare Asam Idanim अहं पूर्वं फिलडेल्फिया नगरे आसम्, इदानीं लीसमेक् नगरे अस्मि।
समीचीनं भगिनि। अस्तु, अन्यः कोऽपि कृतवान् अथवा कृतवती वा?
भगिनि, ऐ हेव् डन् द सेण्टेन्सेस्, ऐ केन् जस्ट् से द सेण्टेन्सेस् क्विक्लि।
अस्तु, वदतु भगिनि।
पूर्वं नामः बाम्बे नगरम् अस्ति आसीत्, इदानीं मुम्बै अस्ति।
समीचीनं।
भवान् इदानीं किं कार्यं करोति? इदानीं मुम्बै नगरे कोविड् शीघ्रं व्यापित।
समीचीनं। Mm-hmm. अस्तु समीचीनं भगिनि. अन्यः कोऽपि कृतवान् अथवा कृतवती वा? अस्तु, द्वितीयः भागः आसीत् गृहपाठस्य द्वितीयभागः. तावत् प्रत्ययान्तं रूपं स्त्रीलिङ्गे तस्य यतोदाहरणं रिक्तस्थानानि पूरयत. अस्तु, सर्वे कृतवन्तः वा?
आं भगिनि, अहं कृतवती.
अस्तु, सर्वे त्रीणि क्रियापदानि कुर्वन्तु. अस्तु, अस्तु, लक्ष्मी भगिनी भवती उदाहरणानि वदतु, अनन्तरं त्रीणि क्रियापदानि करोतु.
पिबति, पीतवती, पीतवचौ, पीतवचः. करोति, कृतवती, कृतवचौ, कृतवचः. वदति, उदितवती, उदितवचौ, उदितवचः. पश्यति, दृष्टवती, दृष्टवचौ, दृष्टवचः. गच्छति, गतवती, गतवतौ, गतवचः. क्षिपति, क्षिपति, क्षिपत्यौ, क्षिप्तवचः, क्षिप्तवचौ, क्षिप्तवचः.
क्षिप्तवती, क्षिप्तवत्यौ, क्षिप्तवत्या,
क्षिप्तवती, क्षिप्तवचौ, क्षिप्तवचः.
समीचीनम्. अस्तु, इदानीं नागेन्द्रमहोदय, भवान् करोतु त्रीणि क्रियापदानि.
जपति, जपितवती, जपितवत्यौ, जपितवत्यः. नयति, नीतवती, नीतवत्यौ, नीतवत्यः. तिष्ठति, चितवती, चित्तवत्यौ, चित्तवत्यः.
अस्तु, इदानीं राधा भगिनी.
कूजति, कूजितवती, कूजितवत्यौ, कूजितवत्यः. पृच्छति, पृष्टवती, पृष्टवत्यौ, पृष्टवत्यः. कथयति, कथितवती, कथितवत्यौ, कथितवत्यः.
समीचीनम्. अस्तु, अनन्तरं राधा भगिनी.
I just did, Pagini. You want me to do some more?
Sorry, Lakshmi, Pagini.
Okay. Shunoti, Shtashun. Kadayati or Shunoti? Pagini?
No, Shunoti.
Shunoti.
Shunoti, Pagini.
Shunoti.
Shunoti.
Yeah. Shrutavati, Shrutavachau, Shrutavachaha. Hasati. हसितवती, हसितवचौ, हसितवचः. चलति, चलितवती, चलितवचौ, चलितवचः.
समीचीनम्. अस्तु, इदानीं नागेन्द्रमहोदय.
भगिनी, इट् इस् विच् शैत्, ओके. जानीत, जानीते.
क्रीडति,
क्रीडति, क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः. गायति, गीतवती, गीतवत्यौ, गीतवत्यः. तपति, तप्तवती, तप्तवत्यौ, तप्तवत्यः.
समीचीनम्. अस्तु, इदानीं राधा भगिनी.
शेते, शयितवती, शयितवत्यौ, शयितवत्यः. जानीते, ज्ञातवती, ज्ञातवत्यौ, ज्ञातवत्यः. यतते, यतवती, यतवत्यौ, यतवत्यः. लभते, लब्धवती, लब्धवत्यौ, लब्धवत्यः.
समीचीनम्. अस्तु, अत्र प्रश्नाः सन्ति वा?
कादम्बरी भगिनी, वाट् लकारम् इस्
प्रत्ययः अस्ति महोदय, क्रौतु प्रत्ययः.
भवतु प्रत्ययन्तं रूपं. वाट् डस् भवतु मीन्स्? वाट् डस्
इट्स् अ प्रत्ययः. इट्स् लैक् भूतकालः, भूतकालः अस्ति परन्तु लकारः नास्ति.
ओके, सो इट् इस् लैक् ए स्पेशल् फार्म् आफ् भूतकालम्.
Not really special, but another form of Bhutakala.
Ah, okay. And it is applicable only for these particular dhatus?
No, these are just for practice. They're applicable for all dhatus.
Okay. And this is for Stree Lingam, because Gacchati will be Gatavan in Bhutakalam, right?
Yes. The other page, it has Pulingam that we did in class last week. Yeah. So I had given this for four.
Okay. Strilingam Bhutakala.
Astu. Adya. Etat griha pata vipena kurvantu. Yaha bhavan atva bhavati kim kim kritavan atva kritavati iti pancha vakyani likata. Astu. अत्र रिक्तस्थानानि तावतु प्रत्ययान्तरूपैः पूरयत. अस्तु, लक्ष्मी भगिनी भवती प्रथमम् उक्त्वा प्रथमम् उदाहरणं वदतु, तस्य अनन्तरं द्वितीयं करोतु.
आं भगिनि, अहम् आश्रमं गतवान्. गत गम गम धातु. त्वं तत्र कदा गम धातु गतवती? त्वं तत्र कदा गतवान् गतवती? इदं स्त्री पुल्लिङ्गं. वयम् एक
स्थगयतु, अनन्तरं नागेन्द्रमहोदय.
वयम् एकस्य वृद्धस्य जीवनकथां शृणु. वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवत्यः?
नो, पुल्लिङ्ग.
श्रुतवन्तः.
समीचीनं. अस्तु, अनन्तरं गोपाल् महोदय.
सः पूर्वं योगशास्त्रं that will be patati patavan. Saha purvam yoga shastram patavan.
Patitavan.
Yes.
Samichin. Anantaram. Raja Bhagini.
Tatra nipunatam praptavan.
समीचीनम्. अनन्तरं गोपाल् महोदय. अस्तु, लक्ष्मी भगिनी.
किन्तु
सारि किन्तु जीवने तद् न आनीतवान्.
अस्तु, समीचीनम्. अनन्तरं लक्ष्मी भगिनी.
तेन दुःखं प्राप्तवान्. तेन दुःखं प्राप्तवान्.
समीचीनम्. अस्तु, अनन्तरं नागेन्द्र महोदय.
कुत्रापि ज्ञानं न दत्तवान्?
पुनः वदतु महोदय.
कुत्रापि ज्ञानं न दत्तवान्.
अस्तु, अनन्तरं राधा भगिनी.
अनन्तरं वृद्धाश्रमम् आप्लस्तम् आगतवान्.
समीचीनम्. अस्तु, अनन्तरं गोपाल् महोदय.
किं त्वम् एतां घटनां घटनां श्रुतवान्? शुड् बी त्वं श्रुतवान्.
अस्तु, अनन्तरं लक्ष्मी भगिनी.
यूयं तत्र स्थितवन्तः. यूयं तत्र स्थितवन्तः.
समीचीनं.
यूयम्
अनन्तरं नागेन्द्र महोदय.
कुरुक्षेत्रे कौरवपाण्डवाः. वयं जीवने योगशास्त्रं आवाम् एतस्मिन् विषये चिन्तनम् आवां कृतवत्यौ.
कृतवन्तौ.
Either.
Oh, kritavantav or
kritavantav. Because Avam could be two girls too.
Okay.
So they could say Avam etasmin vishaye chintanam kritavatyo. Pullinga asti chet kim bhavati?
Kritavantav.
Samichina. Asto, anantaram Radha Bhagini?
Vaya.
Kritavantav or vatyo Bhagini?
Both will work because we do not know what avam is, like two boys.
Oh, okay. Okay.
Depending on the context, you will
get it. Yeah, they will know. Whoever is conversing will know.
Asta. Idanim Radha Bhagini.
Vayam jivane yoga shastram आचरितवन्तः और आचरितवत्यः.
समीचीनम्. अनन्तरं गोपाल् महोदय.
कुरुक्षेत्रे कौरवपाण्डवाः युद्ध योजितवन्तौ.
ओके, एकनिमिषः. तत्र धातुः किमस्ति?
युद्ध.
तस्य किमस्ति क्रियापदं? किम्
एकवचनं. कुरुक्षेत्रे कौरवपाण्डवाः, सो it is referring to both of them, so we can use the
yudhyate.
Okay, it dvivachanam or bahuvachanam?
Atra vake bahuvachanam asti. Ekavachane yudhyate.
Yudhyate.
इदानीं तौ तु
भगिनि वाण्टेड् बि युध्यवन्तः.
किं भगिनि?
कुरुक्षेत्रे कौरवपाण्डवाः युध्यवन्तः बिकास् वि वाण्ट्.
परन्तु वर्तमानकाले किम् इति अहं पृष्टवती. इदानीं तौ तु यस्य रूपं किम्?
वर्तमानकाल युज्यते ओके
भूतकाल प्रयोगः अस्ति चेत्
युज्यवन्तः
समीचीनम् अस्तु अनन्तरम् अर्जुनः सैन्यं लक्ष्मी भगिनी
अर्जुनः सैन्यम् ईक्षितवान्
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
अर्थं किं भगिनि ईक्षितवान् सर्वे अर्जुनः सैन्यम्
ईक्षितवान् सो हि अर्जुन लुक्ड् दिस् आल् दि आर्मी
भगिनि एक प्रश्नमस्ति कुरुक्षेत्रे कौरवपाण्डवाः वर्तमानकाले युज्यते वै युज्यते Is it to go with Kurukshetre?
No, Atmane Padikriya Padamasti.
Aam Bhagini, won't it be plural?
Yudhyante Iti Bhavati.
Ha.
I was just asking Yudhyante. For Eka Vachanam, the regular Kriya Padam, then we can take Vachanam and everything. Not for the sentence upfront.
Oh, okay. For the sentence, it would be Yudhyante, right?
In Bahuvachana.
Okay.
Samichana. Yes, Pagini. Astu. Prashnaha na santi chet. Idani vayam tautu pratyaha krutavantaha. Tautu pratyaha tatra bhutakalasya one way of expressing bhutakala. Atra tautu pratyaha kimasti atra स्त्रीलिङ्गः अस्ति पुल्लिङ्गः अस्ति परन्तु क्रियापद् पठति इति अस्ति चेत् तस्य स्त्रीलिङ्गः लिङ्गः नास्ति पिबति वदति कूजति नयति तस्य लिङ्गः नास्ति तस्य किमस्ति चेत् दौतप्रत्ययः उपयोगं कुर्मः चेत् पीतवती पीतवान् those are the noun forms of the verb iranim la if you want to know the actual bhutakala you will have to do langlakarah tasya apatat alabata abunjata iti sarve bhavanti tadeva vayam idanim kurmah atra astu परन्तु तस्य पूर्वं किञ्चित् अत्र अभ्यासं कुर्मः क्रौतप्रत्ययस्य रिमेम्बर् दिस् फील् यूस् टु प्राक्टिस् अवर् वर्ब्स् नौ यूस् हाफ् आफ्
इट्
जस्ट् फर् परस्मैपदी विल् प्राक्टिस् दट् We do not need to memorize for Atmanepadi yet. Let's first get a good stamina on the Parasmepadi. Astu? Astu. Dushya tekila?
No, Bhagini.
Asti, Bhagini.
Astu, ekanam shaha. दृश्यते किल इदानीं अस्तु एकनिमिषः आं
भगिनि.
प्रथमं राधा भगिनी भवती करोतु. पश्यति वर्तमानकाले प्रत्ययस्य न इन् प्रसेण्टेन्स् वर्तमानकालः.
ओ
पश्यति
पश्यति
पश्यति पश्यतः पश्यन्ति पश्यसि पश्यतः पश्यथ पश्यामि पश्याव पश्याम. अस्तु अस्तु राधा भगिनी भवती करोतु.
भवती डिफिकल्ट् भगिनी.
अस्तु लक्ष्मी भगिनी करोतु.
भवती भवतः भवन्ति
भवति
भवत
भवामि
भवति भवतः भवन्ति भवसि भवतः भवथ भवामि भवावः
भवः भवामः भवति.
इदानीं राधा भगिनी वदति
वदति वदतः वदन्ति वदसि वदत वदतः वदामि वदाव वदामः.
समीचीनम्. अनन्तरं नागेन्द्रन् महोदय
स्थापयति स्थापयतः स्थापयन्ति स्थापयसि स्थापयतः स्थापयथ स्थापयामि स्थापयावः स्थापयामः.
समीचीनम्. अस्तु अनन्तरं गोपाल् महोदय
आनयति आनयतः आनयन्ति आनयसि आनयतः आनयथ आनयामि आनयावः आनयामः.
समीचीनम्. अनन्तरं लक्ष्मी भगिनी
क्रीणाति क्रीणाति क्रीणतः क्रीणन्ति क्रीणासि क्रीणथ क्रीणतः क्रीणत क्रीणामि क्रीणावः क्रीणावामः.
समीचीनम्. अस्तु अनन्तरं नागेन्द्र महोदय
त्यजति त्यजतः त्यजन्ति त्यजसि त्यजतः त्यजथ त्यजामि त्यजावः त्यजामः.
समीचीनम्. अनन्तरं राधा भगिनी
पृच्छति पृच्छतः पृच्छन्ति पृच्छसि पृच्छतः पृच्छत पृच्छामि पृच्छावः पृच्छामः.
समीचीनम्. अनन्तरं गोपाल् महोदय
निन्दति निन्दतः निन्दन्ति निन्दसि निन्दथः निन्दथ निन्दामि निन्दावः निन्दामः.
समीचीनम्. अस्तु एकनिमिषः. चित्रयति लक्ष्मी भगिनी
चित्रयति चित्रयतः चित्रयन्ति चित्रयसि चित्रयत्थः चित्रयत चित्रयामे चित्रामे चित्रावः चित्रामः चित्रयावः अर्चित्र चित्र चित्र भगिनि चित्रामे चित्रावः चित्रायः
चित्रयावः चित्रयामः
चित्रयामे चित्रयावः चित्रयामः
समीचीनम्. अनन्तरं नागेन्द्रमहोदय
अस्ति अस्ति इस् इट् द सेम् पेटर्न् भगिनि अस्ति
अस्ति स्तः सन्ति
स्तः सन्ति असिस्तः स अस्मि स्वः
स्मः
स्वः अस्मः
स्तः सन्ति असिस्तः स्त अस्मि स्वः स्मः
अस्मि अस्ति स्तः सन्ति असिस्तः स्थ अस्मि श्वः स्मः
समीचीनम्. अनन्तरं करोति किं भवति
करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुत करोमि कुर्वः कुर्मः
समीचीनम्. अनन्तरं राधा भगिनी राधा भगिनी नमति राधा भगिनी भवती नमति करोति वा अस्तु लक्ष्मी भगिनी भवती करोतु
नमति नमतः नमन्ति नमसि नमतः नमथ नमामि नमामः नमामि नमावः नमामः
समीचीनम् अस्तु. अनन्तरं नागेन्द्रमहोदय
नयति नयतः नयन्ति नयसि नयथः नयथ नयामि नयावः नयामः
समीचीनं महोदय. अनन्तरं राधा भगिनी इदानीं करोति वा सूचयति
आं भगिनि सूचयति सूचयतः सूचयन्ति सूचयसि सूचयतः सूचयत सूचयामि सूचयावः सूचयामः
समीचीनम् अस्तु. अनन्तरं गोपाल् महोदय
ददाति ददाति ददतः ददन्ति ददसि ददतः ददथ ददामि ददावः ददामः
समीचीनम् अस्तु. कुटति लक्ष्मी भगिनी
कुटति कुटतः कुटन्ति कुटसि कुटस्थः कुटत्थ कुटामि कुटावः कुटामः
समीचीनं भगिनि. अनन्तरं नागेन्द्रमहोदय
प्रक्षालयति प्रक्षालयतः सोरि प्रक्षालयतः प्रक्षालयन्ति प्रक्षालयसि प्रक्षालयथः प्रक्षालयथ प्रक्षालयामि प्रक्षालयावः प्रक्षालयामः
समीचीनं महोदय. अनन्तरं राधा भगिनी
आह्वयति आह्वयति आह्वयतः आह्वयन्ति आह्वयसि आह्वयतः आह्वयत आह्वयामि आह्वयावः आह्वयामः
समीचीनम् गोपाल् महोदय
चालयति चालयतः चालयन्ति चालयसि चालयतः चालयत चालयामि चालयावः चालयावः
समीचीनम्
And what is the meaning of चालयति
ड्रैव् अस्तु इदानीं लक्ष्मी भगिनी
पिबति पिबतः पिबन्ति पिबसि पिबतः पिबथ पिबामि पिबावः पिबामः
समीचीनम् अस्तु अनन्तरं नागेन्द्रमहोदय
उत्तिष्ठति उत्तिष्ठतः उत्तिष्ठतः सोरि उत्तिष्ठतः उत्तिष्ठन्ति उत्तिष्ठसि उत्तिष्ठतः उत्तिष्ठत उत्तिष्ठामि उत्तिष्ठावः उत्तिष्ठामः
समीचीनम् अनन्तरं राधा भगिनि
निद्राति निद्रातः निद्रन्ति निद्रसि निद्रतः निद्रत निद्रामि निद्रावः निद्रामः
समीचीनम् अस्तु अनन्तरं गोपाल् महोदय
स्वीकरोति स्वीकरोति स्वीकुरुतः स्वीकुर्वन्ति अण्ड् स्वीकरोषि स्वीकुरुथः स्वीकुरुथ स्वीकरोमि स्वीकुरुष्वः स्वीकुरुष्मः सोरि स्वीकुर्वः स्वीकुर्मः
समीचीनं
करोति रूपम् एव
योगः तत्र उपसर्गः अस्ति
भगिनि मध्यमपुरुष स्वीकरोषि नाट् शि रैट्
शुड् बि करोषि नो
करोषि
शि
कि ओ नाट् सि
अंश स्वीकरोषि
स्वीकरोति यस् अस्तु अनन्तरं लक्ष्मी भगिनि
आं भगिनि शक्नोति शक्नु शक्नुतः शक्नु शक्नोति शक्नोति शक्नुतः शक्नु 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 शक्नुवन्ति शक्नु सः
शक्नोसि
शक्नोसि शक्नुतः शक्नुत शक्नोमि शक्नुवः शक्नुमः
समीचीनम् अस्तु अनन्तरं नागेन्द्रमहोदय
मिलति मिलतः मिलन्ति मिलसि मिलतः मिलतः मिलामि मिलावः मिलामः
समीचीनम् समीचीनम् अस्तु अनन्तरं राधा भगिनी
यजति यजतः यजन्ति यजसि यजतः यजत यजामि यजावः यजामः
समीचीनम् अत्र स्थगयामः इदानीं गीतासोपाने वयं लङ्लकारः पठामः अस्तु अत्र गोपाल महोदय भवान् चत्वारि वाक्यानि पठन्तु तत्र एकः वाक्य न अष्टवाक्यानि पठतु अत्र सुरेशः भक्तियोगं पठति सुरेशः भक्तियोगम् अपठत् अनन्तरं श्यामः आम् लैक् दिस् टु फोर्
लैन् सुरेशः भक्तियोगं पठति सुरेशः भक्तियोगम् अपठत् श्यामः गीताप्रदर्शनीं पश्यति श्यामः गीताप्रदर्शनीम् अपश्यत् ताः मथुरां गच्छन्ति ताः मथुराम् अगच्छन् क्षत्रियः युद्धं लभते क्षत्रियः युद्धम् अलभत् सारी वट् इस् क्षत्रिय युद्धं लभते वट् डस् इट् मीन्
समीचीनम् अनन्तरं लक्ष्मीभगिनी भवती समापयतु
सर्वे कर्मणः फलं भुञ्जते सर्वे कर्मणः फलम् अभुञ्जत् अहं कृष्णं भजे अहं कृष्णम् अभजे अर्जुनः प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत अर्जुनः प्रज्ञावादान् अभाषत सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्त
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
आं भगिनि गोपाल् महोदय क्षत्रियः युद्धं लभते इत्युक्ते किम् अर्थम्
क्षत्रियः लभते इत्युक्ते किम्
बिन्
लभते
न न न लभते इत्युक्ते नाट् विन् भगिनि लैक् टु गेट्
क्षत्रियस् गेट् वार्स्
भगिनि
आम् आं महोदय
पठति अपठत् पश्यति अपश्यत् गच्छन्ति अगच्छन् लभते अलभत् भजे अभजे नो ऐम् लुकिङ्ग् एट् द नेक्स्ट् अहं कृष्णं भजे अहं कृष्णम् अभजे क्षत्रियः युद्धं लभते सो भजे एण्ड् लभते लभते अलभत् भजे अभजे वै नाट् अभजे
बिकास् इट् इस् You have to look at the Kartripadam. Here it is Aham. Mm-hmm. There it is Saha.
Oh, okay. No.
Asto. Idanim Rupani Patamaha. Asto. Atra Chaldatu Hasti. Tasya Rupani Shanti Achalat, Achalatam, Achalan. Achalaha, Achalatam, Achalata. अचलम् अचलाव अचलाम अस्तु इदानीं दृश् धातुः लक्ष्मीभगिनी भवती पठतु
दृश् धातु अपचत् अपचताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम
समीचीनम् अस्तु अनन्तरं नागेन्द्रमहोदय भवान् पठतु
अतिष्ठा प्रथमपुरुषः अतिष्ठत अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम्
समीचीनम्. अनन्तरं राधा भगिनि.
एष प्रथम पुरुषः एचत् एचताम् एचन् मध्यमपुरुषः एचः एचतम् एचत् उत्तमपुरुषः एचम् एचाव एचाम.
समीचीनम्.
मम पुत्रः कन्दुकं एचत्
ऐच्छत्
ऐच्छत् मम पुत्रः कन्दुकम् ऐच्छत् मीन्स् मै सन् डिसैर्ड् ए बाल्
फार् यूस् टु
डिसैर्ड् सो दट् इस् पास्ट् रैट् ओके
सो वाट् इस् द डिफ्रेन्स् बिट्वीन् एचितवान् अण्ड् एचत्
Where's Ichitavan?
I'm just thinking of Tavatu. The other form, Bhagini.
Tavatu.
Oh. Ichitavan. There's no...
Or is it Ishtavan?
Yeah.
Ishtavan, Ishtavan.
Ishtavan.
Oh, Ishtavan and Echat, is there a difference in the usage?
No. No, Bhagini.
Okay. You can interchange and use either, is it?
Yes.
Bhagini, in the Tvatu Pratyaya, we did not have Pratham Madhyam Uktam Purusha, correct? Just Ekvachan, Bahuvachan, Dvi and Bahu.
Yes, because that is a noun form. This is the Kriya Padam form.
Okay, thank you.
Astu. Anantaram. गोपाल् महोदय भवान् पठतु. भाषधातुः
भाष अभाषत अभाष्येताम् अभाषन्त अभाषथाः अभाष्येताम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि.
समीचीनम् अस्तु. समीचीनम्. अनन्तरं इदानीं लक्ष्मी भगिनी भवती पूरयतु.
भ्रूधातु ऐ थिङ्क् आत्मनेपदं भ्रूधातु अभ्रूत अभ्रूवा अभ्रुवाताम् अभ्रुवत् अभ्रुवत् अभ्रूत अभ्रुवाताम् अभ्रुवत अभ्रूताः अभ्रुवाताम् अभ्रुध्वम् अभ्रुवे अभ्रूवहे अभ्रूमहे.
समीचीनम् अस्तु.
आत्मनेपदं भगिनि.
आम्
भूधातु अण्ड् भाष आत्मनेपदम्
अस्तु.
But yeah, there is a little bit difference between the two, Bhagini. Like Abhashe and Abhruvi.
Brudhatu artham kim?
Brudhatu tasya vishesha.
Brute.
Brute.
Oh, okay.
Brute.
Sorry, artham kim, Bhagini?
वदति
वदति ओके वदति ओके
अस्तु अनन्तरम् अत्र प्रथमपुरुषः तत्र सः सा भवान् भवति अत्र उदाहरणम् अहं ददामि सः अपरत् सा अचलत् भवान् अलभत भवती असेवत अस्तु लैक् दिस् वी हाव् टु डू आल् द एट् अस्तु प्रथमं लक्ष्मीभगिनी भवती करोतु
सः अपठत् तौ अपठतां ते अपठन् त्वं अपठः युवाम् अपठतं यूयम् अपठत अहम् अपठम् आवाम् अपठाम वयम् अपठाम अचलत् शल् ऐ डू द अचलत् आल्सो भगिनि आर् सा वित् सा ईच् वन् हौ भगिनि
अत्र ते ताः भवन्तः भवत्यः बहुवचने नागेन्द्रमहोदय भवान् करोतु
बहुवचनम् Bhagini, you want me to do sa or just bahuvachan only?
Just bahuvachan.
Te apatan, yuvam apatat, vayam apatama, taha achalan, yuyam achalat, vayam achalama, bhavantaha apatan.
समीचीनं अस्तु इदानीं मध्यमपुरुषः एकवचनं राधा भगिनी
मध्यमपुरुष एकवचनं त्वम् अपठ युवाम् अपठतं यूयम् अपठत त्वम् अचलः युवाम् अचलतं यूयम् अचलत Should I do the others also, Bhagini?
Yes.
Tvam alabayataha yuvam alabayetam yuyam alabadvam Tvam asevataha yuvam asevetam yuyam asevadvam
समीचीनम् अस्तु अनन्तरं युवां
सेवताः अर्थं किं भगिनि
सेवते टु सर्व
सर्व ओके यु सर्व्ड मी त्वं असेवताः
द्विवचनं गोपाल् महोदय भवान् करोतु
द्विवचनं फार् प्रथमपुरुष मध्यमं फार् बोत् तौ अपठतां भवन् तौ अलभेतां युवाम् अपठतं युवाम् अलभेताम् and
vam asevetam
युवाम् असेवेथां युवाम् अचलताम् अचलतम्
अनन्तरं यूयं बहुवचनमस्ति. लक्ष्मी भगिनी भवती समापयतु.
यूयं यूयम् अचलम् न यूयम् अचलत यूयम् अपठत यूयम् अचलत यूयम् अलभत यूयम्
असेवत. समीचीनम्. अस्तु अत्र स्थगयामः. शान्तिमन्त्रं वदामः. लक्ष्मी भगिनी.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः.
धन्यवादः भगिनी. नमस्कारः.